नारायण स्तुतिहि शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः स्तुनवन्ति दिव्यैस्तवैः वेदैः सांगपदक्रमोपनिषदैर्गायन्ति यं सामगाः ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरसुरगणा देवाय तस्मै नमः। हे राम पुरुषोत्तम नरहरे नारायण केशव गोविंद गरुड़ध्वज गुणनिधे दामोदर माधव। हे कृष्ण कमलापते यदुपते सीतापते श्रीपते वैकुंठाधिपते चराचरपते लक्ष्मीपते पाहि माम्। आदौ राम तपोवनादिगमनम् हत्वा मृगांकाचनम् वैदेही हरणम् जटायुमरणम् सुग्रीवसंभाषणम् बाली निर्दलनम् समुद्रतरणम् लंकापुरी दाहनम् पश्चाद् रावण कुंभकर्णहननम् एतद्धि रामायणम्। आदौ देवकी गर्भजननम् गोपी गृहे वर्धनम् मायापूतन जीवितापहरणम् गोवर्धनोद्धारणम् कंसोच्छेदेन कौरवादिहननम् कुंतीसुता पालनम् एतच्छ्रीमद्भागवत पुराण कथितम् श्रीकृष्णलीलामृतम्। कस्तूरी तिलकम् ललाट पटले वक्षस्थले कौस्तुभम् नासाग्रे वरमौक्तिकम् करतले वेणुकरे कंकणम्। सर्वांगे हरिचंदनम् सुललितम् कंठे च मुक्तावलिः गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणिः। फुल्लेन्दीवर कांतिमिंदुवदनम् बरहावतंस प्रियम् श्रीवत्सांकमुदार कौस्तुभधरम् पीतांबरम् सुंदरम् गोपीनाम् नयनोत्पलार्चिततनुम् गोगोपसंघावृतम् गोविंदम् कलवेणुनादन परम् दिव्यांगभूषं भजे। शशंखचक्रम् सकरीटकुंडलम् सपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्थल कौस्तुभश्रियम् नमामि विष्णुं शिरसा चतुर्भुजम्। त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव त्वमेव विद्या द्रविणम् त्वमेव त्वमेव सर्वं मम देव देव। राम रामेति रामेति रमे रामे मनोरमे सहस्रनाम ततुल्यं राम नाम वरानने। इति नारायण स्तुतिः सम्पूर्णम्।